अथ नरसिंहनखस्तुतिः। पान्त्वस्मान् पुरुहूत वैरिबलवन्मातङ्गमाद्यद्घटा कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येकवज्रायिताः श्रीमत्कण्ठीरवास्य प्रततसुनखरादारितारातिदूर प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता नाकिवृन्दैः लक्ष्मीकान्तसमन्ततो विकलयन्नैवेशितुस्ते समम् पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योष्टमः यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिता श्रीनरसिंहनखस्तुतिः। अथ श्रीहरिवायुस्तुतिः। श्रीमद्विष्णुमङ्घ्रिनिष्ठातिगुणगुरुतमः श्रीमदानन्दतीर्थ त्रैलोक्याचार्यपादोज्ज्वलजलजलसत्पांसवोऽस्मान्पुनन्तु वाचां यत्र प्रणेत्री त्रिभुवनमहिता शारदा शारदेन्दु ज्योत्स्ना भद्रस्मितश्रीधवलितककुभा प्रेमभारम्बभार उत्कण्ठा कुण्ठकोलाहलजवविदिता जस्रसेवानुवृद्ध प्राज्ञात्मज्ञानधूतान्धतमससुमनो मौलिरत्नावलीनाम् भक्त्युद्रेकावगाढप्रघटनसघटात्कारसङ्घृष्यमाण प्रान्तप्राग्र्याङ्घ्रिपीठोत्थितकनकरजः पिञ्जरारञ्जिताशाः जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानाम् अग्र्याणामर्पकाणां चिरमुदितचिदानन्दसन्दोहदानाम् एतेषामेष दोषप्रमुषितमनसां द्वेषिणां दोषकाणां दैत्यानामार्तिमन्धे तमसि विदधतां संस्तवेनास्मि शक्तः। अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिञ्जने ज्ञानमार्गम् वन्द्यं चन्द्रेन्द्ररुद्रद्युमणिफणिवयो नायकाद्यैरिहाद्य मध्वाख्यं मन्त्रसिद्धं किमुत कृतवतो मारुतस्यावतारं पातारं पारमेष्ठ्यं पदमपविपदः प्राप्तुरापन्नपुंसाम् उद्यद्विद्युत्प्रचण्डां निजरुचिनिकरव्याप्तलोकावकाशो बिभ्रद्भीमो भुजेयोऽभ्युदितदिनकराभाङ्गदाढ्यप्रकाण्डे वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिं वायुदेवो विदध्यात् अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामणिर्मे संसारोत्तापनित्योपशमदसदयस्नेहहासाम्बुपूर प्रोद्यद्विद्यानवद्यद्युतिमणिकिरणश्रेणिसम्पूरिताशः श्रीवत्साङ्काधिवासोचिततरसरलश्रीमदानन्दतीर्थ क्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतं भूरि मे भूतिहेतुः मूर्धन्येषोऽञ्जलिर्मे दृढतरमिहते बध्यते बन्धपाश क्षेत्रे दात्रे सुखानां भजति भुवि भविष्यद्विधात्रेद्युभर्त्रे अत्यन्तं सन्ततं त्वं प्रदिशपदयुगे हन्त सन्तापभाजाम् अस्माकं भक्तिमेकां भगवतौ तते माधवस्याथवायोः साभ्रोष्णाभीषु शुभ्रप्रभमभयनभो भूरिभूभृद्विभूति भ्राजिष्णुर्भूर्भूणां भवनमपि विभो भेदि बभ्रे बभूवे येन भ्रू विभ्रमस्ते भ्रमयतु सुभृशं बभ्रुवद्दुर्भृताशान् भ्रान्तिर्भेदावभासस्विति भयमभिभूः भोक्षतो मायि भिक्षून् ये मुं भावं भजन्ते सुरमुखसुजनाराधितं ते तृतीयं भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेशाः वैकुण्ठे कण्ठलग्नस्थिरशुचिबिलसत्कान्तितारुण्यलीला लावण्या पूर्णकान्ता कुचभरसुलभाश्लेषसम्मोदसान्द्राः आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्या वर्ता मोदान्दधाना मृदुपदमुदितोद्गीतकैः सुन्दरीणां वृन्दैरावन्द्यमुक्तेन्द्वहिमगुमदनाहीन्द्रदेवेन्द्रसेव्ये मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देवदेव उत्तप्तात्युत्कटत्विट्प्रकटकटकटध्वानसङ्घट्टनोद्यत् विद्युद्यूढस्फुलिङ्गप्रकरविकिरणोत्क्वाथिते बाधिताङ्गान् उद्गाढं पात्यमानातमसि तत इतः किङ्करैः पङ्किलेते पङ्क्तिर्ग्राणां गरिम्णा ग्लपयति हि भवद्वेषिणो विद्वदाद्य अस्मिन्नस्मद्गुरूणां हरिचरणचिरध्यानसन्मङ्गलानां युष्माकं पार्श्वभूमिं धृतरणरणिकस्वर्गिसेव्यां प्रपन्नः यस्तोदास्ते स आस्तेऽधिभवमसुलभक्लेशनिर्मोकमस्त प्रायानन्दं कथञ्चिन्नवसति सततं पञ्चकष्टेति कष्टे क्षुत्क्षामान् रूक्षरक्षो रदखरनखरक्षुण्णविक्षोभिताक्षान् आमग्नानन्दकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् पूयासृङ्मूत्रविष्ठा कृमिकुलकलिले तत्क्षणाक्षिप्तशक्त्याद्यस्त्रव्रातार्दितांस्त्वद्विष उपजिहते वज्रकल्पाजलोकाः मातर्मे मातरिष्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धो स्वामिन् सर्वान्तरात्मन्नजरजरयितर्जन्ममृत्यामयानाम् गोविन्दे देहि भक्तिं भवति च भगवन्नूर्जितां निर्निमित्तां निर्व्याजां निश्चलां सद्गुणगणबृहतीं शाश्वतीमाशुदेव विष्णोरत्युत्तमत्वादखिलगुणगणैः सत्र भक्तिं गरिष्ठां संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु यः सन्धत्ते विरिञ्चिश्वसनविहगपानन्त रुद्रेन्द्रपूर्वेष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् तत्त्वज्ञान्मुक्तिभाजः सुखयसि हि गुरो योग्यता तारतम्यादाधत्से मिश्रबुद्धिस्त्रिदिवनिरयभूगोचरान्नित्यबद्धान् तामिस्रान्धादिकाख्ये तमसि सुबहुलं दुःखयस्यन्यथाग्नान् विष्णोराज्ञाभिरित्थं श्रुतिशतमितिहासादिचाकर्णयामः वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशाली ख्यातस्ते ग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादिधर्मैः सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजाम् अम्हो मोहापहो यस्पृहयति महतीं भक्तिमद्यापि रामे प्राक्पञ्चाशत्सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वम् यावत् सञ्जीवनाद्यौषधनिधिमधिकप्राणलङ्कामनैषीः अद्राक्षीदुत्पतन्तं ततौतगिरिमुत्पाटयन्तं गृहीत्वा यान्तं खेराघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वां हि लोकः क्षिप्तः पश्चात् सलीलं शतमतुलमते योजनानां सौच्चः तावद्विस्तारवांश्चाप्युपललवैव व्यग्रबुद्ध्या त्वयातः स्वस्वस्थानस्थितातिस्थिरशकलशिलाजालसंश्लेषनष्ट छेदाङ्कः प्रागिवाभूत्कपिवरवपुषस्ते नमः कौशलाय दृष्ट्वा दुष्टाधिपोरस्फुटितकनकसद्वर्मघृष्टास्थिकूटम् निष्पिष्टं हाटकाद्रिप्रकटतटतटाकातिशङ्कोजनोऽभूत् येनाजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुं किं नेष्टे मे सतेष्टा पदकटकतटित्कोटिभामृष्टकाष्ठः देव्या देशप्रणीतिद्रुहिणहरवरावध्यरक्षो विघाता ज्यासेव्योऽद्यद्दयार्द्रः सह भुजमकरोद्रामनामा मुकुन्दः दुष्प्रापे पारमेष्ठ्ये करतलमतुलं मूर्ध्नि विन्यस्य धन्यं तन्वन्भूयः प्रभूतप्रणयविकसिताब्जेक्षणस्वेक्षमाणः जघ्ने निघ्नेन विघ्नो बहुलबलबकध्वंसनाद्येन शोचत् विप्रानुक्रोशपाशैरसुविधृतिसुखस्यैकचक्राजनानां तस्मै ते देवकुर्मः कुरुकुलपतये कर्मणा च प्रणामान् किर्मीरं दुर्मतीनां प्रथममथ च यो नर्मणा निर्ममाथ निर्मृद्नन्नत्ययत्नं विजरवरजरासन्धकायास्थिसन्धीन् युद्धे त्वं स्वध्वरे वा पशुमिवदमयन् विष्णुपक्षद्विडीशम् यावत् प्रत्यक्षभूतं निखिलमखभुजं तर्पयामासिथासौ तावत्या योजितृप्त्या किमुवद भगवन् राजसूयाश्वमेधे क्ष्वेलाक्षीणाट्टहासं तवरणमरिहन्नुद्गदोद्दामबाहो बह्वक्षौहीण्यनीकक्षपणसुनिपुणं यस्य सर्वोत्तमस्य शुश्रूषार्थं च कर्थस्वयमयमथ संवक्तुमानन्दतीर्थ श्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये द्रुह्यन्तीं हृद्रुहं मां द्रुतमनिलबलाद्रावयन्तीमविद्या निद्रां विद्राव्य सद्यो रचनपटुमथापाद्यविद्यासमुद्र वाग्देवी सासुविद्या द्रविणदविदिता द्रौपदी रुद्रपत्न्यात् द्युद्रिक्ता द्रागभद्रा द्रहयतु दयिता पूर्वभीमाग्नयाते याभ्यां शुश्रूषुरासीः कुरुकुलजनने क्षत्रविप्रोदिताभ्यां ब्रह्मभ्यां बृंहिताभ्यां चितिसुखवपुषा कृष्णनामास्पदाभ्यां निर्भेदाभ्यां विशेषाद्विवचनविषयाभ्यामुभाभ्याममूभ्यां तुभ्यं च क्षेमदेभ्यः सरसिजविलसल्लोचनेभ्यो नमोऽस्तु गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्य भीमः प्रोद्धर्तुं नाशकत्सत्त्वमुमुरुवपुषा भीषयामास चेति पूर्णज्ञानौजसोऽस्ते गुरुतमवपुषो श्रीमदानन्दतीर्थ क्रीडामात्रं तदेतत्प्रमददसुधियां मोहकद्वेषभाजां बह्वीः कोटीरटीकः कुटिलकटुमतीनुत्कटाटोपकोपान् द्राक्षत्वं सत्वरत्वाच्छरणदगदया पोथयामासिथारीन् ఉన్మథ్యా తథ్యమిథ్యావచనవచనానుత్పథస్థాస్తాన్యాన్ ప్రాయచ్ఛస్వ ప్రియాయై ప్రియతమకుసుమం ప్రాణతస్మై నమస్తే. దేహాదుత్క్రామితానామధిపతిరసతామక్రమాద్వక్రబుద్ధిః క్రుద్ధః క్రోధైకవశ్యః కృమిరివ మణిమాన్ దుష్కృతీ నిష్క్రియార్థం చక్రే భూచక్రమేత్యక్రకచమివ సతాం చేతసః కష్టశాస్త్రం దుస్తర్కం చక్రపాణేర్గుణగణ విరహం జీవతాం చాధికృత్య తద్దుష్ప్రేక్షానుసారాత్ కతిపయకునరైరాదృతోన్యైర్విసృష్టో బ్రహ్మాహం నిర్గుణోహం వితథమిదమితి హేష పాషండవాదః తద్యుక్త్యా భాసజాల ప్రసర విషతరుద్దాహదక్ష ప్రమాణ జ్వాలా మాలాధరోగ్నిః పవన విజయతే దేవతారస్తృతీయః ఆక్రోశంతో నిరాశా భయభర వివశస్వాశయాశ్చిన్నదర్పా వాశంతో దేశనాశస్వితిబతకుధియాం నాశమాశాదశాశు ధావంతో శ్లీలశీలా వితథశపథశాపా శివాశ్శాంతశౌర్యాః తద్వ్యాఖ్యా సింహనాదే సపతి దదృశిరే మాయి గోమాయవస్తే త్రిష్వప్యేవావతారేశ్వరిభిరపఘృణం హింసితో నిర్వికారః సర్వజ్ఞః సర్వశక్తిః సకలగుణగణా పూర్ణరూపప్రగల్భః స్వచ్ఛస్వచ్ఛందమృత్యుః సుఖయసి సుజనం దేవకిం చిత్రమత్ర త్రాతా యస్య త్రిధామా జగదు తవ శగం కింకరాః శంకరాద్యాః ఉద్యన్మందస్మితశ్రీ మృదుమధుమధురాలాపపీయూషధారా పూరా సేకోపశాంతా సుఖసుజనమనోలోచనా పీయమానం సంద్రక్ష్యే సుందరం సందుహదిహ మహదానందమానందతీర్థ శ్రీమద్వక్త్రేందుబింబం దురితనుదుదితం నిత్యదాహం కదాను ప్రాచీనాచీర్ణపుణ్యోచ్చయచతురతరాచారతశ్చారుచిత్తాన్ అత్యుచ్చాంబ్రోచయంతీం శృతిచితవచనాన్ శ్రావకాంశ్చోద్యచంచూన్ వ్యాఖ్యాముత్ఖాతదుఃఖాం చిరముచితమహాచార్యచింతారతాంస్తే చిత్రాం సచ్ఛాస్త్రకర్తశ్చరణపరిచరాన్ శ్రావయాస్మాంశ్చ కించిత్ పీఠే రత్నోపకృప్తే రుచిరరుచిమణి జ్యోతిషా సన్నిషణం బ్రహ్మాణం భావినం త్వాం జ్వలతి నిజపదే వైదికాద్యాహి విద్యాః సేవంతే మూర్తిమత్యః సుచరితచరితం భాతి గంధర్వగీతం ప్రత్యేకం దేవసంసత్స్వపితవ భగవన్నర్తితద్యోవధూషు సానుక్రోశైరజస్రం జనిమృతి నిరయాద్యూర్మిమాలా విలేస్మిన్ సంసారాబ్ధౌ నిమగ్నాన్ శరణమశరణానిచ్ఛతో వీక్ష్య జంతూన్ యుష్మాభిః ప్రార్థితః సన్ జలనిధిశయనః సత్యవత్యాం మహర్షేః వ్యక్తశ్చిన్మాత్రమూర్తిర్న ఖలు భగవతః ప్రాకృతో జాతు దేహః అస్తవ్యస్తం సమస్తశ్రుతిగతమధమైరత్నపూగమ్యథాంధైః అర్థం లోకోపకృత్యై గుణగణనిలయః సూత్రయామాసకృత్స్నం యోసౌ వ్యాసాభిధానస్తమహమహరహర్భక్తితస్త్వత్ప్రసాదాత్ సద్యో విద్యోపలబ్ధ్యై గురుతమమగురుం దేవదేవం నమామి ఆజ్ఞామన్యైరధార్యాం శిరసి పరిసరద్రశ్మికోటీరకోటౌ కృష్ణస్యాక్లిష్టకర్మాదధదనుసరణాదర్థితో దేవసంఘైః భూమావాగత్య భూమన్నసుకరమకరోర్బ్రహ్మసూత్రస్య భాష్యం. दुर्भाष्यं व्यस्यदस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वं भूत्वा क्षेत्रे विशुद्धे द्विजगणनिलये रूप्यपीठाभिधाने तत्रापि ब्रह्मजातिस्त्रिभुवन विशदे मध्यगेहाख्यगेहे पारिव्राज्याधिराजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वा कृत्वा भाष्याणि सम्यग् व्यतनुत च भवान् भारतार्थप्रकाशम् वन्दे तं त्वा सुपूर्णप्रमतिमनुदिना सेवितं देववृन्दैः वन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् वन्दे मन्दाकिनी सत्सरिदमलजलासेकसाधिक्यसङ्गम् वन्देऽहं देवभक्त्या भवभयदहनं सज्जनान्मोदयन्तम् सुब्रह्मण्याख्यसूरेः सुत इति सुभृशं केशवानन्दतीर्थ श्रीमत्पादाब्जभक्तस्तुतिमकृतहरेर्वायुदेवस्य चास्य तत्पादार्चादरेण ग्रथितपदलसन्मालया त्वेतयाये सम्राध्यामूनमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येकवज्रायिताः श्रीमत्कण्ठीरवास्य प्रततसुनखरादारितारातिदूर प्रध्वस्तध्वान्तशान्तप्रविततमनसा भावितानाकिवृन्दैः लक्ष्मीकान्तसमन्ततो विकलयन्नैवेशितुस्ते समम् पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योष्टमः यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्निस्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः इति श्रीत्रिविक्रमपण्डिताचार्यविरचिता श्रीहरिवायुस्तुतिः।